नमस्कारः
नमस्कारः भगिनि.
अद्य प्रथमं मङ्गलाचरणं भवति.
अस्तु अस्तु
भगिनि. कोऽपि स्मारयतु.
अहं स्मारयामि भगिनि.
अस्तु भगिनि. अस्तु अस्तु अस्तु. आरम्भं करोति.
मङ्गलाचरणम्. एनाक्षरसमान्नाय अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः. येन दोतागिरिं पुंसां विमलै शब्दवारिभिः तमश्च ज्ञानञ्जं भिन्नं तस्मै पाणिनये नमः. वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारञ्च प्रणतोऽस्मि मुनित्रयं. गुरुभ्यो नमः.
धन्यवादः निर्मला भगिनी. अतः आरम्भं कुर्मः. अद्य अन्तर्जालसूचकपत्रे लक्ष्मीभगिन्या उक्तं खलु, सर्वे मिलित्वा सत्वं नत्वम् इति विषयद्वयस्य चिन्तनं कुर्युः इति सा उक्तवती सूचकपत्रे. तदा एव वयम् अद्य कुर्मः.
गोमती भगिनी
वदतु वदतु केति भगिनी.
टुडे गुरुपूर्णिमा सह मै आल् भगिनी एन् महोदय शुभशया. गुरुपूर्णिमा शुभशया.
धन्यवादः
धन्यवादः भगिनि.
अस्तु. तो इदानीं सत्त्व नत्व चिन्तनं भवति. प्रथमम् अस्माभिः पाणिनीयव्याकरणवर्गे पूर्वं पठितं न, तस्य किञ्चित् चिन्तनं कुर्मः. यथा किं अस्माभिः पठितं न, सर्वे जानन्ति एव, तदापि वयं पुनस्मरणं कुर्मः. फर् एक्साम्पल् पदम् इत्युक्ते किम् इति आरभ्य, पदम् इत्युक्ते वयं सर्वे जानीमः सुप्तिङन्तं पदम् इति. सो पदस्य निर्माणार्थम् अष्टाध्याय्यां सूत्राणि सन्ति. पाणिनिना रचयिताः बहुतानि सूत्राणि बहूनि सन्ति. तत्र प्रकरणसूत्राणि सन्ति, कथं प्रक्रिया भवति इति सर्वम् अस्ति तत्र. तत्र प्रक्रिया यदा वयं आरम्भं कुर्मः तदा प्रथमं वयं धातुं स्वीकृत्य एव कार्यस्य आरम्भं कुर्मः. धातुः क्रियापदानि भवतु, सुबन्धपदानि भवतु, किमपि धातुं स्वीकृत्य एव कार्यस्य आरम्भं भवति. तिङन्त प्रत्ययानि योजयित्वा तिङन्तानि पदानि भवति. कृत् प्रत्ययोजनं कृत्वा प्रातिपदिकनिर्माणं भवति. अनन्तरं सुबन्धपदानि भवन्ति. यत् किमपि तिङन्तपदं वा सुबन्धपदं वा धातु एव मूलरूपम्. अतः धातोः प्राधान्यं बहु अस्ति अत्र. सो प्रथमं पाणिनिना द्विसहस्र धातोः आल्मोस्ट् अप्राक्सिमेट्लि सूत्र धातुपाठे कृतम्. एते धातवः वयं पश्यामः, यदा डुक्रिञ् भवति, डुपचष् भवति, था भवति, णीनि भवति इति. बट् प्रक्रिया वयं यदा कुर्मः तदा वयं पश्यामः कृ अस्ति, स्था अस्ति, णि अस्ति इति. तु किमपि कार्यं भवति, लौकिकक्रिया यदा वयं कुर्मः तत्पूर्वं धातोः कृते किमपि कार्यं कृत्वा एव वयं लौकिकरूपस्य निर्माणं कुर्मः. तु धातुः पदानां मूलपदः अस्ति इति प्रथमविषयः. अनन्तरं कुवादयः धातवः इति धातोः विषये संज्ञासूत्रमस्ति. वयं सर्वे जानीमः एतत् सर्वं तथापि अहं पुनः वदामि स्मरणार्थं. सर्वे जानन्ति एव, अतः किञ्चित् मम कृते करोतु, शृणोतु. अनन्तरं धातुं स्वीकृत्य पाणनिर्माणं भवति इति अहम् उक्तवती. तदर्थं सोपानानि सन्ति. सोपानानि, प्रथमसोपानं भवति धातुं स्वीकृत्य तस्य अनुबन्ध शब्दानां वर्णानां निष्कासनं करणीयं. तदेव प्रथमकार्यं भवति. तो प्रथमसोपानमस्ति इत् संज्ञानिष्कासनं. धातोः औपदेशिकस्वरूपे विद्यमानवर्णाः प्रक्रियायाः प्रारम्भे एव लुप्यन्ते इति उक्तम्. ये प्रक्रियायां स्वयं प्रत्यक्षरूपेण भागं न स्वीकुर्वन्ति, परन्तु अप्रत्यक्षरूपेण किञ्चन परिणामं कुर्वन्ति. ते भवन्ति अनुबन्धाः अथवा इत् संज्ञकवर्णाः. यदा पूर्वम् अस्माभिः दर्शितं दुपचष्, तत्र दु षकारः, तस्य इत् संज्ञा भवति. तो प्रारम्भे एव तेषां लोपं भवति, प्रत्यक्षरूपेण ते न भवन्ति यदा वयं प्रक्रियां कुर्मः, परन्तु अप्रत्यक्षरूपेण तेषां प्रवर्तनं तत्र अस्ति. अनन्तरं इत्संज्ञकविषये, इत्संज्ञकप्रकरणं वयम् अस्माभिः पठितम्, अभ्यासानि कार्याणि अपि कृतं. सर्वे जानीमः इत्संज्ञक सूत्राणां, कोऽपि वदतु इत्संज्ञकसूत्राणि किं किं कानि कानि इति इत्संज्ञकसूत्राणाम्.
उपदेशे जनुनासिक इत् हलन्त्यम् आदिर्निटुडवः शप्रत्ययस्य दशकतद्विते, अनन्तरं तस्य लोपः,
तस्य लोपः
इति, तस्य लोपः इति यत्सूत्रं नास्ति,
विधिसूत्रं खलु,
निषेधसूत्रम् इत्सज्ञक.
अन्य एक वार्तिका अस्ति इत्संज्ञा वार्ता,
एकं वार्तिकमपि अस्ति. षड् सूत्राणि सन्ति. एकम् एका वार्तिका, एकं वार्तिकमस्ति, अनन्तरं
विधिसूत्रम्.
हा, विधिसूत्रं, निषेधसूत्रम् अस्ति. विधिसूत्रम्, आम् विधिसूत्रं, क्षम्यतां, विधिसूत्रमस्ति तस्य लोपः इति. तो इदानीम् इत्सत्यसूत्राणि जानीमः वयम्, इत्सत्यकस्य लोपः अपि अभवत् वयं जानीमः तत्सर्वम्. अनन्तरं प्रथमकार्यम् अस्माभिः कृतम्. इट्स् वेरि इम्पार्टेण्ट्. प्रथमकार्यम् इत्सत्यकनिष्कासनम्. अनन्तरं भवति द्वितीयसोपानं. द्वितीयसोपानम् अस्ति अनैमित्तिकानि प्राकृतिककार्याणि इति. अनैमित्तिकानि प्राकृतिककार्याणि, अद्य अस्माभिः चिन्तनविषयम् एतत् अस्ति. प्राकृतिककार्याणि इत्युक्ते प्रकृतिसम्बन्धि इति प्राकृतिकं, प्राकृतिकस्वरूपम् एव एतत् कार्यं वदति. प्राकृतिककार्यम् इति औपदेशिककार्यम् इति अपि तस्य अपरं नाममस्ति, औपदेशिककार्यम्. अनन्तरम् अनैमित्तिकानि इतपि अस्ति. अनैमित्तिककानि इत्युक्ते निमित्तं नास्ति तत्र, वितौट् निमित्तम् एव अनैमित्तिकानि धातोः तत्र परिवर्तनं भवति. इत्सज्ञलोपात् अनन्तरमेव एतत् कार्यं भवति. इत्सज्ञलोपात् अनन्तरं प्रत्यययोजनात् पूर्व धातोः यद् परिवर्तनं भवितुम् अर्हति तदेव अनैमित्तिकानि प्राकृतिककार्याणि इति. प्राकृतिकरूपे यद् धातुः अस्ति तद् लौकिकप्रक्रियायां कृते सिद्धः नास्ति. तदेव वयम् अद्य कुर्मः. तत्र प्रकृतविषये अस्माभिः सूत्रद्वयं पठितम्. कोऽपि स्मारयतु सूत्रद्वयं पठितं गतवर्षे. धात्वादेः सहसः
निमित्तापाये नैमित्तिकस्य उपायः
तद् अनन्तरं भवति. इत एतत् कार्यं नैमित्तिकानि इत्युक्ते अनैमित्तिकानि निमित्तमेव नास्ति. धात्वादेः सः सः इति वदामः न धात्वादेः सः सः
सूत्रं भगिनी.
आम् भगिनि, आं भगिनि. धात्वादेः सः सः अथवा नो नः इति एव उक्तं. तदा किमपि न तत्र किमपि न उक्तं. पूर्वं यः भवेत् परं ये भवेत् यद् निमित्तं भवेत् किमपि नास्ति. यथा इत् श्लोपानन्तरं धातोः आदौ षकारः अस्ति चेत् तस्य
षकारस्य स्थाने
सकारस्य आदेशः करोतु इति. सकारः सकारः भवेत्. निमित्तं किमपि नास्ति. अत एव अनैमित्तिकानि. अनन्तरं तत्र तत् करपत्रं स्वीकुर्मः. करपत्रं धातुविज्ञानं 0322 धातुविज्ञानम् अस्ति न?
अस्ति.
आरम्भं कुर्मः. केत्की भगिनी, भगिनी
ओ भगिनी, ऐ हेव् टु फैण्ड् औट्
चन्द्रमौली महोदय.
भगिनी धातुविज्ञानं
अतिविज्ञानं मूलधातूनां लौकिकरूपाणां सिद्ध्यर्थं कार्यद्वयं विचारणीयम् इति
वाक्याधारविज्ञानम् एक इति पाठे अस्माभिः दृष्टं यत् अनुबन्धानां निष्कासनम् इति प्रथमं कार्यम्. इत्संज्ञकवर्णानां निष्कासनानन्तरं सत्वं नत्वं नुमागमः उपधादीर्घः चेमानि सङ्गृहीततया द्वितीयं कार्यम्. एषु चतुर्षु किञ्चित् सम्भवति वा इति अवश्यं चिन्तनीयम्. सम्भवति चेत् इदं कार्यं कुर्मः, नो चेत् धातुः प्रक्रियार्थः. तर्हि इमानि चत्वारि कार्याणि कानि इति अस्मिन् करपत्रे अवलोकयाम. अस्तु भगिनि.
हा वदतु भगिनि, किम् अवगतम् इति वदतु भगिनि.
ओ, मूलधातु लौकिकरूपाणा सिद्ध्यर्थ कर्तुं शक्य. वि हेव् टु विचारणीयम्. धातुविज्ञानपाठे अस्माभिः विदृष्टम् अनुबन्धनानिष्कासनं प्रथमं कार्यमस्ति. नन्तरसंज्ञकवर्णानां निष्कासनं कर्तुं नत्वं नुमागमः उपधादीर्घः चतुर्थी सङ्गृहीततया द्वितीयकार्यमस्ति. एषु चतुर्षु किञ्चन सम्भवित् वा न सम्भवित् इति चिन्तनीयम्. सम्भवित् अस्ति चेत् इदं कार्यं कुर्मः, नो चेत् धातुः प्रक्रियातः सिद्धः। तर्हि इमानि चत्वारि कार्याणि कानि अति इति अस्मिन् करपत्रे अवलोकयामः। अस्तु भगिनि,
अग्रे
पठतु,
अग्रे पठतु। सत्वं
सत्वं धात्वादेहेशः सः उपदेशावस्थायां धातोः आदौ षकारः अस्ति चेत् षकारस्य स्थाने सकारादेशो भवति। धातोः आदि धात्वादिः षष्ठी तत्पुरुषः तस्य धात्वादेहे, धात्वादेहे षष्ठ्यत्तम्, सः षष्ठ्यत्तम्, सः प्रथमान्तम्, त्रिपदमिदं सूत्र। आदे च उपदेशे शिति इत्यस्मात् उपदेशे इत्यस्य अनुवृत्तिः, अनुवृत्तिसहितसूत्रमस्ति धात्वादेहेशः सः उपदेशे। उपदेश अवस्थायां धातुः अस्ति, तस्य धातोः आदौ षकारः अस्ति चेत् षकारस्थाने सकार आदेशः भवति।
उपदेश इत्युक्ते किं भगिनि? उपदेशावस्थायाम्,
उपदेशावस्थायां मतलब पूर्वपाठे दे सेड दैट दिस इज उपदेश अवस्था। अहम् आई कैन नॉट एक्सप्लेन वेरी वेल।
प्रथमोच्चारणम् यदो पाणिनिना उक्तम् सूत्रम् आगमः आदेशः धातु प्रत्ययः एतत् सर्वम् उपदेशे भवति। तो उपदेश अवस्थायां धातुः यदा दृष्टं न डुक्रिण् ष्ठा एतत् उपदेश अवस्थायां धातु डुक्रिण् अस्ति, तदेव तत्र उक्तम्। उपदेश अवस्थायां इत्सज्ञकनिष्कासानन्तरं षकारः अस्ति चेत् षकारस्य स्थाने सकारः आदेशः
भवति
इति, तदेव तत्र अनुवृत्तिसहितसूत्रं धात्वादेः शः सः उपदेशे, धात्वादेः इति षष्ट्यन्तं, तस्य स्थाने
प्रथमान्तं त्रिपदमिदं सूत्रमस्ति। आदे च उपदेशे शिति इत्यस्मात् उपदेशे इत्यस्य अनुवृत्तिः भवति।
धात्वादेः षकारस्य सकारः आदेशः भवति, सकारः प्रथमविभक्तौ अस्ति, आदेशः भवति उपदेश अवस्थायाम्। अस्तु भगिनि,
धन्यवादः भगिनि।
अस्तु भगिनि, नरेश भाटिया महोदय पठतु वृत्तान्ते श्वदम्।
वृत्तान्ते श्वदम् आस्वादने इति धातुः, उपदेशे अजननुनासिक इत् इत्यनेन दकारोत्तरवर्तिनः अङ्कारस्य इत् संज्ञा, तस्य लोपः इत्यनेन लोपश्च। श्वद श्वद् धात्वादेः शः सः इत्यनेन आदौ स्थितस्य शकारस्य स्थाने सकारादेशः, श्वद् स्वद्। अत्र एकः धातुः अस्ति श्वदं, श्वदन्। अत्र उपदेशे अजनुनासिक सूत्रस्य श्वदन् अन्तिम अङ्कारः अनुनासिक अस्ति, तस्य यत्संज्ञा भवति यत्संज्ञा भूत्वा तत्र श्वद् स्थीयते धात्वादेः
सूत्रं वदतु महोदय
उपदेशे अजनुनासिक इत् तत्र ओङ्कारस्य इत्संज्ञा भवति अनन्तरं तस्य लोपः भवति श्वद् स्थीयते श्वद् अस्ति अनन्तरं धात्वादेः शः सः सूत्रेण शः स्थाने सकार आगतः स्वद् भवति
इति धात्वादेः शः सः भवति अस्तु तो प्रथमम् अनुनासिक अकारस्य निष्कासनम् अभवत् अनन्तरमेव षकारस्य सकारेद सकार आदेशः भवति अस्तु पठतु महोदय अन्यत् उदाहरणं तदपि पठतु
अन्यत् उदाहरणं ष्ठा गतिनिवृत्तौ इति धातुः यथा सामान्यं प्रथमं कार्यम् इत्संज्ञकवर्णानां निष्कासनं ष्ठा धातौ कोऽपि इत्संज्ञकः वर्णः नास्ति अतः प्रथमं सोपानं समाप्तं साक्षात् द्वितीयं सोपानं गच्छेम तत्र चतुर्षु कार्येषु सत्त्वस्य प्रसक्तिः ष्ठा धातोः आदौ षकारः अस्ति अतः धात्वादेः शः सः इत्यनेन सूत्रेण षकारस्य स्थाने
अहं न शृणोमि हरियो
तु संज्ञक इत्संज्ञक पश्याम परन्तु अत्र इत्संज्ञकः वर्णः नास्ति अतः वयं द्वितीयसोपानं पश्याम किं भगिनि
मया किमपि न उक्तम्
द्वितीयसोपानं वयं पश्याम तत्र धात्वादेः शः सः सूत्रमस्ति तत् सूत्रं ष्ठ षकारस्य स्थाने सकारः आगतः अतः ष्ठ ष्ठ भवति अत्र तु षकारस्य स्थाने सकारः आगतः ष्ठा भवति अग्रे निमित्तिपाय नैमित्तिकस्यापि
कोऽपि अन्यः पठति अत्र प्रथमम् प्रथमे उदाहरणे इत्सत्यः वर्णः अस्ति तस्य निष्कासनानन्तरम् एव धात्वादेशः सः इत्यस्य कार्यं द्वितीय उदाहरणे इत्सत्यः वर्णः नास्ति ष्ठा एव तत्र षड् इत्संज्ञकसूत्राणि अस्माभिः पूर्वं दर्शितं तत्र किमपि इत्संज्ञकवर्ण इत्संज्ञकवर्ण वर्ण नास्ति अतः तत्र लोपविषयः न भवति ष्ठा एव आदौ षकारः अस्ति तस्य स्थाने सकारः आदेशः भवति धातु आदेशे शः सः इति सूत्रेण अग्रे गच्छामः गीताञ्जलि भगिनी गीता तिवारी
क्षम्यतां भगिनि अद्य न शक्नोमि भगिनि किञ्चित् गृहकार्यं करोमि क्षम्यतां भगिनि शृणोमि एव
अस्तु अस्तु डाक्टर् रोहिणी रोहिणी भगिनि
आं भगिनि पठामि अत्र कश्चन प्रसिद्धप्रवादो वर्तते निमित्ताभावे नैमित्तिकस्य अपि अपायः निमित्तस्य अपाये नैमित्तिकस्य अपि अपायः निमित्तम् इत्युक्ते कारणं नैमित्तिकम् इत्युक्ते फलम् अपायः इत्युक्ते अभावः अत्र ध्येयं यत् यद्यपि स्था इत्येव अस्य धातोः मूलरूपं किञ्च वस्तुतः यः ढकारः वर्तते स ढकारः आसीत् अष्टाध्याय्यां तादृशम् इङ्गितम् अस्ति कथमिति अग्रे दृश्यताम् ढकारस्य मूलस्वरूपं ढकारस्य मूलस्वरूपं ढकारः किन्तु षकारस्य प्रभावेन ष्टुत्वसन्धिना ढकारः ढकारः जातः तदा धात्वादेः षः सः इत्यनेन षकारस्य स्थाने सकारादेशः षकारस्य कारणेन एव ढकारः ढकारः जातः इत्युक्तम् अधुना स च षकारः अपगतः गतः इति कारणतः तेन षकारेण कृतं यत् कार्यं तत् पुनः निवर्तते कारणं गतम् अतः धनमपि गच्छति येन निमित्तेन कार्यं कारितं तन्निमित्तं षकारः नास्ति चेत् यत् नैमित्तिकं ढकारः अस्ति तदपि न तिष्ठति निमित्ताप्राये नैमित्तिकस्य अपि अपायः षकारः गतः अतः ढकारः अपि गच्छति स्था विकं स्था स्था इति धातुः निष्पन्नः अत्र एकं चिन्तनं निमित्तापाये नैमित्तिकस्य अपि अपायः निमित्तं मीन् इत्युक्ते कारणं कारणं गतं चेत् निमित्तम् अथवा नैमित्तिकम् अथवा बलमपि गच्छति षकारस्य निमित्तेन धकारः ढकारः अभवत् परन्तु यत् षकारः स्था अभवत् इति अनेन ढकारस्य अपि अभावः भवति ढकारः स्था धा एव भवति ष्टा इति धातुः षः सः धात्वादेः षः सः इति सूत्रेण षा विकं सः तत् निमित्तं षकारनिमित्तम् अवगच्छति तदा ढकारः धा भवति
अत्र निमित्ति निमित्ति का षकारः षकारः निमित्तं निमित्ति निमित्ति
धा निमित्ति धा
धा सूत्रं स्मरति वा
स्तोष्टुनाष्टु
अस्तु अस्तु धन्यवादः भगिनि अत्र निमित्तापाये नैमित्तिकस्यापि अपायः इति एकवादम् अस्ति एतत् सूत्रं नास्ति वार्तिकमपि नास्ति परिभाषा अपि नास्ति एतत् जनेन यदा लोके स्वीकृतमस्ति तद् एकं वादरूपेण तत् प्रचलति अतः तद् वदति यत् निमित्तम् अस्ति चेदेव नैमित्तिकं तिष्ठति निमित्तस्य अपगमने नैमित्तिकम् अपि न तिष्ठति तत्र उदाहरणेन ष्ठा इति धातुः धात्वादेः शः सः इति सूत्रेण षकारस्य सकारः भवति पूर्वं तु था एव आसीत् ष्टुनाष्टुः इति सूत्रस्य कारणेन तत्र ठकारः भवति ष्ठा इति पाणिनीयधातुपाठे ष्ठा इति अस्ति परन्तु तस्य रूपं प्रक्रियावस्थायां स्था भवति. स्था एव स्वीकुर्मः अग्रे गत्वा रूपाणि निर्माणि रूपाणि भवन्ति रूपाणि भवन्ति इति एतत् निमित्तापाये नैमित्तिकस्यापायः इति एकः वादः. अनन्तरं भगिनी अग्रे अपि पठतु तथैव यत्र तथैव यत्र धातुषु
धातुषु अनुनासिकः वर्गीयः नम च अनुस्वारः च अस्ति. तत्र एते वर्णाः नकारजाः. नकारजः नाम नकारात् उत्पन्नः. वृत्तान्ते अञ्जुधातु गतिपूजनयोः मूलधातुः अञ्जु इत्येव, किन्तु तत्र नकारस्य मूलस्वरूपं नकारः. चकारस्य योगेन एव स नकारः नकारः जातः. धातुषु एवं सर्वत्र बोध्यम्
उदाहरणमस्ति.
उदाहरणम् अनुनासिकवर्णेन अञ्जु धातु नकारः नकारः अभवत्. मूलम् अत्र नकारः आसीत् परन्तु चकारस्य योगेन अनुनासिकवर्णः अभवत्. धातुषु सर्वत्र बोध्यमस्ति.
एतत् कार्यं भवति. वर्णमेलनं भवति. सन्धिकार्यस्य निमित्तम् अस्ति चेत् तद् भवति. अञ्जु इति भवति. अनन्तरं धन्यवादः महोदय. अपि
धन्यवादः
नरसिंह महोदय. पठतु
वा? पठामि.
श्नाशौचे
एकनिमिषम् स्ना शौचे इति धातुः. अत्र णकारस्य मूलस्वरूपं नकारः, किन्तु शकारस्य प्रभावेन ष्टुत्वसन्धिना नकारः णकारः जातः. तदा धात्वादेः शस इत्यनेन स्ना स्ना निमित्तापाये निमित्तिकस्य पेपायः इत्यनेन स्ना स्ना इति लौकिकधातुः. स्नाति इति लटि, स्नानम् इति ल्युटि. अत्र स्ना मूर्धन्यशकारः अस्ति, अनन्तरं णकारः अस्ति शौचे इति अर्थे. अत्र णकारस्य मूलस्वरूपं नकारः एव आसीत्, किन्तु ष्टुत्वसन्धिना शकारस्य प्रभावेन तत् नकारः मूर्धन्यणकारः जातः. तदा धात्वादेशः स इत्यनेन अत्र मूर्धन्यशकारस्य दन्त्यशकारः भवति. तत् दन्त्यशकारः अनन्तरं णकारः इति भवति. अत्र शकारः निमित्तं यत् अस्ति तत् जातः किं भवति इत्युक्ते फलमपि गच्छति. मूर्धन्यनकार अनन्तरं पुनः दन्तनकारः भवति, स्ना इति भवति. तत् तस्य स्नाति इति लटि अस्ति, स्नानम् इति ल्युटि अस्ति.
निमित्तं निमित्तरूपेण यदा शकारः अस्ति तदेव नकारस्य अपि अस्तित्वं तत्र. शकारस्य सकारः भवति चेत् तत्र नकारः पूर्वस्य नकारः भवति इति. ष्ठा श्ना उदाहरणानि सन्ति. अनन्तरं लट् रूपं दत्तमस्ति. स्नाति इति स्नानम् इति ल्युट् रूपमपि दत्तमस्ति. प्रक्रिया वयं जानीमः. अग्रे गच्छामः.
अधुना एतत् सर्वं यदुक्तं तत् विषयपरिवर्तन विषयपरिचयत्वादुक्तं भावार्थस्य सुखबोधनार्थं दत्तं निमित्तापाय नैमित्तिकस्य अपाय इति प्रसिद्ध प्रवाद अस्ति बहुत्र च एतादृशी शिक्षा दीयते यत् स्टा स्ना इत्यादयः धातवः तथैव उपदेशात् लौकिकस्थितिः प्राप्नुवन्ति किन्तु भाष्यकार पतञ्जलिश्च काशिकाकारो वामनजयादित्यो प्रतिपादयत् यत् अयं निमित्तपाय नैमित्तिकस्य अपाय इति न तु परिभाषा न वा वार्तिकम् अस्य प्रवादस्य एतस्मिन् विषये सामर्थ्यम् अधिकारो वा नास्ति अतः शास्त्रीयाश्रयम् अवलम्ब्य प्रतिपादनं भवति चेत् वरं स्यात् इति विचिन्त्य एतौ द्वौ मुनि एवं वार्ता सृष्टिकुरुत अद्य नैमित्तिके निमित्तापाये नैमित्तिकस्य अपायः इति सूत्रस्य कोऽपि समर्थनं न कर्तुं शक्नुमः वयं तदेकप्रवादम् अस्ति इति अन्यत् शास्त्रचिन्तनं
सूत्रं नास्ति परिभाषा अपि नास्ति वार्तिकमपि नास्ति परन्तु एतत् सुलभतया सरलतया जनाः तस्य स्वीकरणं कुर्मः तदनन्तरं प्रक्रियायाम् एतस्य उपयोगमपि कुर्मः यथा स्था भवति इति प्रतिवादरूपेण चिन्तनेन भवति इति उक्तं तत्र अनन्तरं निर्मला भगिनी
धन्यवादः महोदय
धन्यवादः निर्मला
भगिनी पठामि ष्टा धातोः उपदेशे अवस्थायां मूर्धन्यषकारः अस्ति परन्तु दन्त्यथकारः अस्ति स्था इति स्थितिः अधुना युगपत् ष्टुनाष्टुः च दात्वादे सहसः च आगत्य कार्यार्थम् उद्युक्तं भवति ष्टुनाष्टुः इत्यनेन स्था धातोः विद्यमानस्य षकारस्य प्रभावेन ठकारस्य स्थाने ठकारादेशः अपि च धात्वादेः सहसः इत्यनेन औपदेशिकधातोः आदौ स्थितस्य षकारस्य स्थाने सकारादेशः अस्यां दशायां द्वयोः सूत्रयोः मध्ये कस्य कार्यं प्रथमं प्रवर्तनीयम् इति प्रश्ने सति अस्माकं पाठे अग्रे वक्ष्यमाणेन पूर्वत्रासिद्धम् इति सूत्रेण शृणाष्टुः इति शास्त्रम् असिद्धं तस्य त्रिपाद्यं विद्यमानत्वात् द्वात्वादेः सहसः इत्यनेन शकारस्य सकारादेशः भवति तदा यतोहि तदानीं शकारो नास्त्येव शृणाष्टुः इत्यनेन यः ठकारादेशः भवति स्म सः तु न भवति असङ्गत्वात् दन्त्यथकारः यतावत् तिष्ठति एव दन्त्यसकारस्तु जातः अतः लौकिकधातुः स्था इति सम्पन्नम् अस्यां प्रक्रियायां ठकारस्य ठकारः न कदापि भवति अयं विषयः बाध्यबाधकभावस्य पाठे इतोपि स्पष्टं भविष्यति अस्य अभावे निमित्तापाये नैमित्तिकस्याप्यपायः इति प्रवादः अत्र दत्तः ष्टा धातोः स्वीकुर्मः चेत् उपदेशे अवस्थायां मूर्धन्य षकारः आदौ धातोः आदौ मूर्धन्य षकारः अस्ति परन्तु उपदेश अवस्थायां वट् शुड् ऐ से महाप्राणथकारः दन्त्यथकारः अस्ति एव, किन्तु स्टुनाष्टुः इति स्टुनाष्टुः इति सूत्रेण सूत्रस्य कारणेन थकारः भवति, दन्त्यथकारः टकारः भवति, अतः द्वयोः कार्यं क्रियते अत्र. किन्तु यदा द्वातादेः सहसः आगत्य शकारस्य स्थाने सकारादेशः भवति तदा ठकार ष्टुनाष्टुः इति सूत्रं कार्यं न करोति. अतः टकारः न भवति, दन्त्यथकारः महाप्राणथकारः ठकारः न भवति इति उच्यते. कारणं किम् इत्युक्ते एकत्र समये एकत्र द्वयोः सूत्रं यदि प्रसक्तिः अस्ति चेत् तदा पूर्वत्रासिद्धम् इति एकः सूत्रमस्ति तस्य पूर्वत्रासिद्धम् इत्युक्ते सूत्रम् इत्युक्ते यस्य यः सूत्रं पूर्वम् आगच्छति तदेव सिद्धं भवति. अग्रिमसूत्रस्य प्रसक्तिः एव नास्ति इति उच्यते. अतः प्रथमं सूत्रं धात्वादेः सहसः अस्ति इति कारणेन ष्टुनाष्टुः कार्यं न करोति. अतः धात्वादेः सहसः इति सूत्रेण मूर्धन्यशकारः शकारस्य स्थाने सकारादेशः भवति. अतः द प्रकृति द मूलस्वरूपम् आफ् थकारः रिमेन्स्, दन्त्यथकारः विल् रिमेन्, इट् विल् नाट् बिकम् थकारः बेस्ड् आन् ष्टुनाष्टुः इति. अतः एव अग्रिम विषय अस्ति शकारः निमित्तम् अस्ति, मूर्धन्यशकारः निमित्तम् अस्ति. अतः यदा निमित्तं गच्छति यदा निमित्तम् अपगच्छति नैमित्यम् अपि अपगच्छति इति एकः प्रसिद्धप्रवादः अस्ति. अत्र प्रवादेन ठकारः अपि जातः, यथा शकारः मूर्धन्यशकारः जातः ठकारः अपि जातः, अतः स्था एव अवशिष्यते लौकिकरूपम्.
धन्यवादः भगिनि. अत्र ष्टुनाष्टुः धात्वादेशः सः, अनन्तरं पूर्वप्रासिद्धम्, अनन्तरं बाध्यबाधकभावस्थावस्य पाठे, अनन्तरं निमित्तापाये नैमित्तिकस्य अपि अपायः इति बोल्ड् लेटर्स् तत्र सन्ति. ष्टुनाष्टुः तत् परिचितं सूत्रं, शकारटकारस्य योगे सकार तवर्गीयवर्णानां षकारः टवर्गे वर्णाः भवन्ति वयं जानीमः धात्वादे हे शः सः अपि पठितम् अनन्तरं पूर्वप्रसिद्धम् इति एकं सूत्रम् अष्टाध्याय्याम् अष्टम अध्याये द्वितीयपादे प्रथमसूत्रम् इति वयं पश्यामः अष्टाध्यायी इति ग्रन्थः ग्रन्थस्य भागद्वयं भवति अष्टम अध्यायस्य द्वितीयपाद तृतीयपादं चतुर्थपादम् एतत् सर्वम् एकं भागं भवति प्रथम अध्यायस्य आरभ्य अष्टाध्याय्याम् अष्टम अध्यायस्य प्रथम अध्यायपर्यन्तम् एकभागमस्ति तत्र पूर्वप्रसिद्धम् इति सूत्रं प्रथमसूत्रं द्वितीय अध्याये तस्य अधिकारः सर्वत्र अष्टाध्यायः अन्तपर्यन्तं तस्य प्रभावः भवति तत् सूत्रेण पूर्वं यत् कार्यं भवति पूर्वसूत्रेण यत् कार्यं भवति तत् कार्यं परसूत्रेण किं कार्यं भवति चेत् तत् न पश्यति इति वदति पूर्वत्र सिद्धं तदेव पूर्वं सप्ताध्याय्यां प्रथम अध्यायस्य आरभ्य सप्तम अध्याय प्रथम पाद पर्यन्तम् अष्टमाध्यायस्य प्रथम अध्याय तत् अवसानं यद् सूत्राणि सन्ति तत्र किं कार्यं भवति तानि कार्याणि पूर्वत्रसिद्धम् इति सूत्रेण यद् कार्यं भवन्ति द्वितीयभागे तद् न पश्यति अत्र पूर्वं निमित्तापाये नैमित्तिकस्य अपि अपायः इति शास्त्रीयचिन्तनं नास्ति यदा महोदयेन उक्तं तत् सूत्रं नास्ति क्षम्यतां परिभाषा नास्ति वार्तिकमपि नास्ति एक प्रवादः एक तत् तत् स्वीकृतं लोके स्वीकृतम् अस्ति परन्तु तत्र शास्त्रीयचिन्तनं नास्ति शास्त्रीयचिन्तनं भवति अत्र पश्यतु ष्ठा इति अस्ति तदेव वयं धातुपाठे पश्यामः ष्ठा इति पश्यामः तत्र षकारस्य सकारः भवति इति पाणिनिना उक्तं तु षकारः सकारः भवति परन्तु पूर्वं थकारः एव तत्र आसीत् थकारः यदा षकारः पाणिनिना यदा उक्तं षकारस्य प्रभावेन ष्ठुनाष्टुः इति सूत्रेण थकारस्य ठकारः अभवत् ष्ठा इति रूपं वयं पश्यामः परन्तु यदा सकारस्य आदेशः भवति तदा पूर्वस्य थकारः एव तत्र आगत्य तिष्ठति किमर्थं सूत्रेण सहितं वयं पश्यामः चेत् धात्वादेशः सः इति सूत्रं ष्टुनाष्टुः इति सूत्रं सूत्रद्वयम् अत्र कार्यं कर्तुम् आगच्छति धात्वादेः शः सः इति कारणेन यदा सकारः भवति तदा एव ष्टुनाष्टुः कार्यं करोति सोरि सकारस्य यदा षकारः भवति तदा एव ठकारः ठकारः भवति ष्टुनाष्टुः इति सूत्रेण परन्तु ष्टुनाष्टुः इति सूत्रम् अष्टाध्यायस्य द्वितीयभागे अस्ति द्वितीयभागे यद् कार्यम् अभवत् तत् कार्यं पूर्वभागस्य सूत्राणि न पश्यन्ति अतः धात्वादेः शः सः यदा षकारस्य सकारः अभवत् तदा तत्र ठकारः एव तत् पश्यति ठकारः न पश्यति अतः स्था इति रूपमेव तत्र भवति अत्र बाध्यबाधकभावस्य पाठे इति अपि दत्तं तद् वदति यदा सूत्रद्वयम् अथवा सूत्रत्रयम् एकत्र आगच्छति कार्यं कर्तुम् एकस्मिन् स्थले एकत्र एकस्मिन् स्थले एकस्मिन् समये यदा कार्यं कर्तुम् आगच्छति अपि सूत्रद्वयस्य सूत्रत्रयस्य कार्यमपि भवितुम् अर्हति चेत् किं सूत्रं प्रथमं कार्यं करोति इति प्रश्नः उदेति. तत्र एकं परिभाषा अस्ति पूर्व पर नित्य अन्तरङ्ग अपवाद उत्तरोत्तरम् उत्तरोत्तरं बलीयः इति एक परिभाषा अस्ति. तत् सूत्रं वदति पूर्वस्य सूत्रस्य अपेक्षया परसूत्रं बलवत् बलीयः भवति. तदेव परसूत्रस्य अपेक्षया नित्यसूत्रं बलीयः भवति. नित्यसूत्रस्य अपेक्षया अन्तरङ्गसूत्रं बलीयः भवति. अनन्तरम् अपवादसूत्रं सर्वेषु सूत्रेषु तदेव बलीयः भवति इति परिभाषा अस्ति. तो तत्परिभाषाया विषये यदा अग्रे वयं पठामः तदा एतत् कार्यं स्पष्टं भविष्यति इति तत्र उक्तम्. इदानीं निमित्तापाये नैमित्तिकस्यापि अपायः इति प्रवादः स्वीकृत्य वयम् अग्रे गच्छामः इति. अस्तु, अग्रे गच्छामः.
आं भगिनि,
अपि ओ कः पठति प्रतिमा महोदय भगिनी अस्ति वा? प्रतिमा भगिनी
पठामि. प्रक्रियां दृष्ट्वा प्रश्नः उदेति तर्हि किमर्थं धातुपाठे औपदेशिकधातुः स्था दीयते? कारणम् इदं यत् औपदेशिकधातुः एव अपेक्षते चेत् स्टुत्वस्य अवसरः भवति. धात्वादेशः सः इति सूत्रं प्रवर्तनीयं भवति. यदा किमपि कार्यं करणीयं यदा किमपि लौकिकरूपं सम्पादनीयं भवति, किन्तु औपदेशिकधातुः एव अपेक्षितं चेत् तत्र मूर्धन्यषकारः अस्ति एव. तदर्थं स्टुनाष्टुः इति अनेन ठकारादेशं करोति. अनेन इति ष्ठाधातु इति जायते. यदा वयं प्रक्रियां पश्यामः तदा प्रश्न उदेति धातुपाठे औपदेशिकधातुः किं स्था इति दीयते. तस्य कारणम् अस्ति औपदेशिकधातुः अपेक्षते चेत् स्टुत्वस्य प्रसङ्गः भवति. धात्वादेशः सः इति सूत्रं प्रवर्तनीयं भवति. दिस् ऐ काण्ट् एक्स्प्लेन् वाय. यदा किमपि कार्यं करणीयं भवति औपदेशिकधातुः एक उपेक्षितं चेत् तत्र मूर्धन्यषकार अस्ति एव. दिस् ऐ काण्ट् एक्स्प्लेन् प्लीस्.
ओके, अस्तु भगिनि. अत्र प्रश्नः अस्ति स्था एव प्रक्रियायां वयं पश्यामः किमर्थं स्था इति उक्तम्, षकारस्य आवश्यकता किं, षकारस्य सकारः भवति चेत् किमर्थं सकारः एव प्रथमं तत्र नास्ति? शकारस्य प्रयोजनं किम्? औपदेशिकशकारस्य प्रयोजनं किमर्थम् इति प्रश्नः. बहूनि अत्र शा आदौ अस्ति इति बहवः धातवः सन्ति. सर्वत्र प्रक्रियावस्थायां सकारः एव पश्यामः. किमर्थं शकारस्य प्रयोजनं किम् इति प्रश्नः. तत्र शकारस्य सकारादेशः नित्यं भवति. इदानीं वयम् अग्रे पश्यामः यथा सन् प्रत्ययम् उपयुज्य वयं प्रक्रियां कुर्मः तथा तत्र षकारः एव आगच्छति. यथा सेव् धातु अस्ति चेत् सन् प्रत्ययान्तयोजनानन्तरं सिषेविषु इति रूपं भवति, सिषेविषु इति न भवति. तत्र षकारस्य आवश्यकम् अस्ति. अत तथैव सृज धातु अपि सि सृक्षु भवति, तत्र षकारस्य आवश्यकः नास्ति. केषुचित् धातुषु विद्यमानस्य आदिस्थसकारस्य रूपसिद्धौ षकारादेशः न भवति इति अग्रे बहूनि कार्याणि भवन्ति. तत् यदा वयं तत्र गच्छेमः तदा वयम् एतत् स्पष्टतया जानीमः. परन्तु षकारस्य प्रयोजनमपि अस्ति अग्रे यदा सन् प्रत्यययोजयित्वा प्रक्रिया कुर्मः नूतन पदानां निर्माणं यदा भवन्ति तदा इत्येव तत्र दत्तमस्ति भगिनि. अस्तु, अग्रे गच्छामः. अपि सर्वे पठितं. केत्की भगिनी?
आं भगिनि. नमस्ते भगिनी, सुजाता अस्मि.
ओ सुजाता भगिनी,
क्षम्यतां. सुभाषय भगिनी, गुरुपौर्णमस्य सुभाषयाः.
क्षम्यतां
विलम्बेन आगतवती.
Okay, Bhagini, she can speak.
Yeah, you
Sujata Bhagini,
do it.
Patatu, natuam.
Ketaki Bhagini, patati va.
Dhanyavada, Sujata Bhagini, you go, carry on.
Okay. Natuam, no naha, upadeshavastayam, dhatoho, adav, nakaraha, astiche, नकारस्य स्थाने नकारादेशः भवति. नः षष्ट्यन्तं, न नः प्रथमान्तं, द्विपदमिदं सूत्रम् आदेश उपदेश उपदेशे स्थिति इत्यस्मात् उपदेशे इत्यस्य अनुवृत्तिः, धात्वादेशः सः इत्यस्मात् धात्वादेहि इत्यस्य अनुवृत्तिः, अनुवृत्तिसहितसूत्रं धात्वादे नः नः उपदेशे नत्वं सूत्रमस्ति. नूनः उपदेशावस्थायां धातोः आदौ नकारः अस्ति चेत् नकारस्य स्थाने नकारादेशः भवति. उपदेशे आदेशे च उपदेशे सिति इत्यस्मात् उपदेश अनुवृत्ति भवति, धात्वादेशः सः इत्यस्मात् धात्वादे अनुवृत्तिसहितसूत्रं धात्वादे नः नः उपदेशे उपदेशावस्थायां धातु आदौ धातु नः अस्ति चेत् नः भवति. आगे आगे
पठतु भगिनि.
स्ना नृतौ इति धातुः प्रथमम् उपदेशे जनुनासिक इत् इत्यनेन अकारस्य इत्संज्ञा तस्य लोपः इत्यनेन लोपस्य ष्णां षट् ष्णट् श्नूनः इत्यनेन ष्णट् नट् इति लौकिकधातुः नटति लटि नाटकः नूल् नाटकं लुटि. अत्र धातुः अस्ति नटान् नृ अर्धः अस्ति नृत्यौ इति प्रथमम् उपदेशे जननासिक इत्यनेन अकारस्य अहङ्कारस्य इत्संज्ञा भूत्वा तस्य लोपः भवति. नट् एव अवशिष्यते. नूनः इत्यनेन नट् स्थाने नट् इति लौकिकधातुः भवति. नटति लटि लटि नाटक नूल् नाटकं लुटि. एवमेव भगिनि.
आम् 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 अग्रे एकं वाक्यमस्ति तदपि पठ.
अस्य महत्त्वं किम् इति चेत् कार्यं कुत्रचित् अस्मिन् अवलम्ब्य यदा नत्वं नत्वविषये.
अत्र नो नः इति द्वितीय सूत्रमस्ति. अनिमित्यप्राकृतिककार्याणि तत्र द्वितीयसूत्रमस्ति. नत्वविधि इति वदामः. नत्वविधि पूर्वं सत्त्वविधि, अत्र नत्वविधि इति. नो नः इति सूत्रम् नोनः वदति धात्वादेः नकारः अस्ति चेत् तत्रापि इत्संज्ञकलोपानन्तरम् अत्र धात्वादेः नकारः अस्ति चेत् तस्य नकारः भवति. तदा एव लौकिक प्रक्रियायां कृते तत् धातुः सिद्धः भवति इति. अत्र णो नः धात्वादेः तत्रापि धातोः आदौ तस्य स्थाने नकारः नकारस्य नकारः आदेशः प्रथमविभक्तौ यत् उपदेशावस्थायां. तेषां धातूनां संज्ञा भवति नोपदेशस्य नोपदेशधातवः इति. उदाहरणेन नाटौ इति दत्तं. वयमपि सर्वे जानीमः उपदेशे अजनुनासिक इति. अनुनासिक अकारस्य लोपः इत्संज्ञा भवति. तस्य लोपः इति सूत्रेण लोपः अपि भवति. नाट नट एव अवशिष्यते. अनन्तरम् एतत् सूत्रं कार्यं करोति. इत्संज्ञकनिष्कासनम् एव प्रथमं कार्यं. तद् मनसि सर्वावस्थायां तद् भवति एव. नट नट भवति एतत् सूत्रेण नट इति तत्र मूर्धन्यनकारस्य तालव्य नकारः भवति इति. अत्र अग्रे तस्य उपयोगं कुत्र भवति इति तत्र दत्तमस्ति. उपदेशे उपसर्गादसमासेपि णोपदेशस्य इति एकं सूत्रं, तस्य विषये.
धन्यवादः भगिनि.
अस्तु, सः पठतु.
अहं वदामि.
पठतु भगिनि, पठतु, वदतु.
उपसर्गासेपि णोपदेशस्य, उपसर्गस्थात् निमित्तात् परस्य णोपदेशस्य धातोः नस्य णः स्यात् समाने असमाने अपि. आधिक्येन नकारादिधातवः यथा नि
भगिनि, समासे असमासे समाने नास्ति, समासे असमासे अपि.
क्षम्यताम्, समासे असमासे अपि. आधिक्येन नकारादिधातवः यथा नि अस्ति नयति भवति, नम अस्ति नमति भवति, नश् अस्ति नश्यति भवति. एते धातवः वस्तुतः उपदेशे नकार आदयः सन्ति. तदा णो नः इत्यनेन लोके नकारादयः भवन्ति. यत्र एते धातवः उपसर्गपूर्वाः भवन्ति, अपि च उपसर्गे णत्वस्य निमित्तं वर्तते. यथा परियोगनि, तत्र यतोहि उपसर्गः पृथक् पदम् अस्ति, अतः रषाभ्यां नो णः समानपदे इति णत्वविधायकसूत्रेण णत्वं न स्यात्. किन्तु उपसर्गात् समासे पि णोपदेशस्य इति सूत्रेण, यत्र णोपदेशधातुः उपसर्गपूर्वकः अस्ति, अपि च उपसर्गे णत्वस्य निमित्तम् अस्ति, तत्र णत्वस्य निमित्तं समानपदे नास्ति चेदपि णत्वं भवति. उपसर्गात् समासे अपि णोपदेशस्य,
अत्र समासे अपि नास्ति, असमासे उपसर्गाद् असमासेपि, उपसर्गादसमासेपि णोपदेशस्य,
उपसर्गात् असमासेपि णोपदेशस्य, उपसर्गस्थात् निमित्तात् परस्य णोपदेशस्य धातोः नस्य णः स्यात् समाने असमाने अपि.
समासे
असमासे अपि. यदि
अर्थः अवगच्छामः, समाने असमाने नास्ति, समासे असमासे इति.
यदि धातो परस्य णोपदेशस्य धातो अस्ति, नस्य समासे अस्ति अथवा असमासे अस्ति, तद्यपि नकारादिधातवः नि अस्ति, नयति भवति, नमति भवति, नश्यति भवति. एते धातवः वस्तुतः उपदेशे नकारादयः सन्ति. सो इट् सेज़ दैट उपसर्गस्थात् धातो णोपदेशस्य धातोः अस्ति, समासे अस्ति अथवा असमासे अस्ति, तदपि रषाभ्यां णो णः समानपदे नहि, परन्तु उपसर्गात् असमासे अपि णोपदेशस्य णत्वं भवति.
अस्तु, अत्र समासे असमासे इत्यस्य प्राधान्यं किम् अस्ति?
यदि धातो
समासे असमासे इति उक्तं,
समासे अस्ति अथवा असमासे अपि अस्ति, तस्य णोपदेशस्य सूत्रेण नकारः समानपदे अस्ति, परन्तु रषाभ्यां नो णः समानपदे सूत्र वदति, यदि समानपदे अस्ति तर्हि तर्हि नो नकार भवति, परन्तु यदि उपसर्गात् अस्ति अथवा समासे अस्ति अथवा असमासे अस्ति तर्हि णोपदेशस्य सूत्रेण नकार भवति।
उपसर्गात् इति तत्र प्राधान्यं किम्? अनन्तरं समानपदे इत्युक्ते किम्?
यदि उपसर्ग अस्ति उदाहरणे परि योगनी, परि उपसर्ग अस्ति, नी धातु अस्ति, राइट?
वदतु।
तस्य उपसर्ग पृथक पदम अस्ति, यत् रसाभ्यां नो न समान पदे तत्र उपसर्ग पृथक अस्ति, परन्तु उपसर्गात् असमासे अपि सूत्र वदति णोपदेशस्य अस्ति तर् नकार भवति।
किमपि उपसर्गः भवति चेत् नत्वं भवति वा? उदाहरणेन अव इति उपसर्गः अस्ति, तदा किं भवति? अवयोगनि। अनन्तरं किमपि लुल् ति किमपि प्रत्ययः भवति,
नयति भवति,
अवति अव इति उपसर्गः अस्ति, नि इति णोपदेशस्य धातुः अस्ति, तदा अपि उपसर्गादसमासेपि णोपदेशस्य इति सूत्रं कार्यं करोति वा?
या करोति। Begini, you explain. I understand, but I cannot explain very well. You explain.
Doesn't matter, Begini. Doesn't matter at all. Upasarghe... Begini,
na karoti.
Kimartham?
Nimittam nasti.
Nimittam utipte kim? Tatra?
Repaha.
रेफः भवेत्, न तु षकारः भवेत्, ऋकारः भवेत्, एतत् निमित्तम् अस्ति चेदेव उपदेशावस्थायां यद् यः धातुः अस्ति तस्य नकारः भवति, तत् समासपदे समस्तपदे भवति, क्रियापदानि अपि भवति इति उपसर्गात् असमासेति, असमासे अपि इत्युक्ते समासे भवति असमासे अपि भवति इति तत्र अर्थम्। यत्कि भगिनी भगिनी उपसर्गात् निमित्तं भवेदेव, यथा रेभः भवति परि प्रा रेभः अस्ति, सो प्रा हा अनन्तरं तदेव तत् सूत्रं वदति समानपदं नास्ति, किमर्थं चेत् प्रापरि इति अव्ययः पदं तस्य पदसंज्ञा अस्ति, तु सुबन्धपदं भवति, अनन्तरं तत् समस्तपदमस्ति, अतः समासे असमासे क्रियारूपाणि अपि भवन्ति चेत् तदा अपि तस्य तत्र णोपदेशस्य धातोः नकारस्य नत्वं भवति इति। उदाहरणेन यथा समासे भगिनी पठतु।
अहं वदामि,
पठतु भगिनि, तदा एव अवगच्छति सम्यक्तया।
अवगतं भगिनि, भगिनि आय अवगतं कि अगर रसाभ्यां नोणः समानपदे अस्ति तर्हि रकारः अस्ति, षकारः अस्ति, आणि नकारः अस्ति, समानपदे अस्ति तत्र नकार भवति, परन्तु अगर समानपदे न अस्ति तर्हि समासे अपि अस्ति अथवा असमासे अपि अस्ति, तत्रापि णोपदेशस्य तिस् सूत्रे नकार भवति।
एतदपि वक्तव्यं, निमित्तं किं
निमित्ति किम् इति. निमित्तं भवति उपसर्गस्थ उपसर्गस्थरेफशकारः. निमित्ती भवति नोपदेशस्य धातुः. अनन्तरम् उदाहरणं पठति वा नो चेत्
नमस्ते केतकी भगिनी. नमस्ते. उदाहरणं वदामि वा? हा पठामि वा?
आं भगिनी प्लीज.
यथा समासे प्रयोगे नियोगे ल्युट् इति अस्ति. प्र इति उपसर्गः अस्ति, नि इति नोपदेशस्य धातुः अस्ति. यदा ल्युट् प्रत्ययम् अस्ति चेत् ल्युट् इत्युक्ते तत्र टकारस्य इत्संज्ञा भवति, तथा लशकुतदिते इति सूत्रेण लकारस्य अपि इत्संज्ञा भवति, तस्य लोपः भवति, केवलं यकारः एव अवशिष्यते. किन्तु तत्र अन्यत् सूत्रम् अपि आगत्य अन इति आदेशः भवति. किं सूत्रं युवारनाकौ इति सूत्रम् अस्ति. अतः प्रयोगः नयनं नयनम् अत्र न इति मूर्धन्यण इति परिवर्तनं भवति. युवोरुनासिको इति सूत्रेण प्रणयनम् इति अन् इति आदेशः भवति. अन्तिमरूपं प्रणयनम् इति निष्पद्यते.
किमर्थं तत् नकारस्य नकारः भवति?
नकारस्य अत्र उपसर्गत रेफ रसाभ्यां नोणः समानपदे इति सूत्रेण नयनम् इत्यस्य नोपदेशस्य धातुः अस्ति, तत् न इति मूर्धन्यण इति भवति. उपसर्गात् समासे अपि नोपदेशस्य इति सूत्रे.
अतः नि इति धातोः किमपि उक्तं वा सूत्रे? नि कीदृशधातुः?
नि इति नोपदेशस्य धातुः अस्ति.
निमित्तं
प्र अस्ति.
निमित्ति भवति नोपदेशस्य धातोः नः नोपदेशस्य धातुः. णि इति णिञ् इति अस्ति उपदेशावस्थाया. णिञ् अस्ति तत्र ञकारस्य इत्संज्ञा भवति, लोपः भवति. अनन्तरं नकारस्य नोनः इति सूत्रेण नकारः भवति. अतः प्रयोग णि इति प्रक्रियावस्थायां प्रयोग नि इति. परन्तु उपदेशावस्थायां तद् णकारः धातु, णकारादि अस्ति तत्र णीञ्यति धातु, प्रणायनम् इति भवति. अनन्तरं भगिनी एव पठतु भगिनी सर्वाणि उदाहरणानि.
परियोगः नामः अस्ति. अत्रापि परि अत्र निमित्तम् अस्ति. नाम न नकारः अस्ति इति नामः इति उपदेशिक धातुः अस्ति. तदनन्तरं नाम नोणः इति सूत्रेण नामः इति भवति वा? परि इति
इदानीं विस्मृतवती. नामः इत्युक्ते कोऽपि स्मरति वा नाम तत्र धातुः किम् इति? अहम् इदानीं न स्मरामि. एनिवे तद् उपदेशावस्थायां तत्र नकारः आसीत्, तद् नकारः अभवत्. अनन्तरं भगिनि महोदय
आं
भगिनि णम् इति मन्ये.
नम कथं नाम भवति भगिनी? नम तु नम एव भवति, नमति भवति, प्रणमति इति भवति.
क्षम्यतां भगिनि, एकं विशिष्टसूत्रम् अस्ति, तत्र लक्ष्मी भगिनी उक्तवती अपि अस्ति. अनुनासिक किञ्चित् इति आरम्भे अस्ति इति अस्मि किन्तु सूत्रं तु विस्मरामि. सूत्रेण तत्
नामः भवति, नामः भवति
इति वा अत उपधाया इति अधुना तु संशय जातः.
अत उपधायः न भवति न, किमर्थं चेत् परं वयं किमपि न पश्यामः न. ध्वनिमुद्रणम्
अहम्
एकवारं शृणोमि तत्र. अस्तु, अनन्तरं किम् एतत् अहं जानामि, नम भवति चेत् परिणमति एव भवति. नम भवति परिणमति. नामः पश्य
नरसिंहमहोदय अस्ति वा, सः जानाति. भवान् वदतु महोदय, किमर्थं परिणामः किम् अस्ति, कथम् अभवत् इति वदतु.
कथम् अभवत् वयं जानीमः, नामः इत्यस्य
दीर्घं कथं भवति इति
दीर्घं
नाम भवति खलु.
परिणामः इति समस्तं
अस्ति न, तत्र नकारः परे अस्ति चेत् वृद्धिः भवति इति अन्यम्.
भगिनी अहं रिटर्न् संथे परियोग नाम परिणामः. परियोग नाम सुबन्तपदम् अने परि उपसर्गे रेफः अस्ति, निमित्तं नामे पदे नकारः अस्ति, उपसर्गात् समासे अपि णोपदेशस्य सूत्रेण नकारस्थाने णकार आदेश भूत्वा परिणामः इति पदं निष्पद्यते. नामः पदमस्ति
किन्तु दीर्घं कथम् आगच्छति भगिनि.
सुबन्धपदम् ओके, परन्तु तस्यापि पूर्वम् एकं धातुः
भवेत्.
ओ अस्ति अस्ति, मे बि ऐ मिस् देट्.
ध्वनिमुद्रणं शृणुमः भगिनि. परि नि नुल् वदतु भगिनि. नुल् विषयः नास्ति महोदय, नाम
परिणामः इति विषये.
परे णित् अस्ति चेत् अचोणिति इति सूत्रेण वृद्धिः भवति, अकारस्य आकारः भवति, अथ परिणाम इति भवति.
परन्तु प्रत्ययः किं, परियोग नाम योग प्रत्ययः किं,
नूल्
नास्ति अत्र, नूल् नास्ति.
नूल् अस्ति चेत् परिनायकः भवति, अकारति परिनायक. परि नामस्य विषये एव ध्वनिमुद्रणे भवति
भगिनी. नम भवति धातु, नम भवति
धातु, नम भवति चेत् परिणम भवति न.
परिणमति वैः परिणाम,
परिणाम
कथं भवति इति प्रश्नः.
प्रश्नः अस्तु,
उत्तरमपि अस्ति ध्वनिमुद्रणे अस्ति, ध्वनिमुद्रणे अस्ति. अग्रे गच्छामः, परियोग नियोग नुल्.
परि अत्र अत्र परि इति उपसर्गः अस्ति, उपदेशे न इति धातुः अस्ति, नि तत्र उपदेशे उपसर्गात् असामासे अपि नोपदेशस्य इति सूत्रेण परियोगः णि इति भवति, नकारस्य मूर्धन्यणकारः भवति. तदनन्तरं तस्य योगे णुल् इति प्रत्ययः अस्ति, तत्र व इति एव अवशिष्यते, तत्र अक इति आदेशः भवति, अतः परिणायकः इति भवति अन्तिमरूपम्.
उपदा दीर्घ इति सूत्रं कार्यं करोति वा, उपदा दीर्घ इति सूत्रं अहं मन्ये अत्र उपधादिकार्यं कृत्वा न अकार अकार भवति इति अहं चिन्तयामि. अहं न जानामि.
अस्तु अस्तु महोदय, उपधायाः दीर्घः भवति, परन्तु प्रत्ययः किम् किमपि नीत्वा नित् भवेत् न, वयं प्रत्ययः न पश्यामः.
आमां सम्यक् सम्यक् क्षम्यताम्
भगिनी. ल्यूट् प्रत्ययः अस्ति,
तत्र उत्तरम् अस्ति, समाधानम् अस्ति.
सेकेण्ड् वन् द्वितीयं द्वितीयम् एव. अस्तु अस्तु,
द्वितीयं नुल् न भवति, ततो परिणाया भवति न, परिणाय ध्वनिमुद्रणं शृणुमः भगिनि. अग्रे गच्छामः. परियोगनाम परिणामयोग.
अहं किञ्चित् वदामि. नाम योगः घञ् घञ् प्रत्ययः अस्ति तत्र अहं चिन्तयामि. नाम योगः घञ् तत्र अचोन्यनिधि प्रवर्तते, नाम भवति.
अस्तु पासिबल् पासिबल्. अत्र खञ् प्रत्ययस्य दर्शनं नास्ति, अतः तत्र संशयः भवति.
योगे नाम भवति, परिणाम परियोग नाम अत्र नकारस्य नत्वं भवति उपसर्गनिमित्तत्वात्.
अस्तु.
Previously she was explaining, no?
When
it is Nama, what is the Pratipadikam from Nama? So we said Naman is the Pratipadikam.
Nama.
Nama is different from Namaha, she was saying, no?
Tatra Gai Pratyasti, Achoniti Ti Sutrena, Dirga Vritti Bhavati. Akarasya Akara Vritti Rupamasti, Iti Krutva Nama Bhavati. निच्प्रत्ययस्य आचौर्नीति इति सूत्रेण वृद्धिर्भवति इति कृत्वा
अस्तु. अत्र परियोग नाम योग तिन् अग्रे रोहिणी भगिनी वदति वा?
आं भगिनि महोदय, परियोग तिन् तिन् इत्यस्य नकारः ककारः इत्थं भवति. नकारः हलन्त्यम् इति सूत्रेण, ककारः लशको अधिद इति सूत्रेण ति एव अवशिष्यति. नं योगः ति योगस्य नकारस्य नप्तं भवति, परन्तु अकारः कं न न नति.
तत्र एकविशिष्टमपि
एव भवति.
एकविशिष्टसूत्रं कार्यं करोति, मकारस्य निष्कासनं भवति. तत्र एकविशिष्टसूत्रम् अस्ति. सूत्रं सूत्रं न विस्मरामि अहम्. एकं विशिष्टं सूत्रं तत्र कार्यं करोति. अतः परि न ति इति स्त्रीलिङ्गरूपम्
अस्ति, तत् कारणेन परिणति इति नकारस्य नत्वं भवति. परिणतिः इति सूत्रम् इति
उदाहरणद्वयमपि पठतु भगिनि.
परियोगः नयोगः ता नयोगः ता कृता इत्यस्य ककारः इत्थं भवति. हकारस्य धकारः भवति किमपि सूत्रेण स्मरितवती न स्मरामि. नन्धा भवति. परियोगः नन्धा इत्यस्य नकारस्य नत्वं भवति, उपसर्गद्वयं भवति इति कारणेन.
तत्र तत्रापि विशिष्टसूत्राणि भवति. नः धातोः विषये विशिष्टसूत्रमस्ति. अनन्तरं विशिष्टसूत्राणि सन्ति तत्र. अनन्तरमेव परिणद्धं सन्धिकार्यमपि भवति. परिणद्धम् इति रूपं भवति. अनन्तरं परियोग नम योगः
तत्रैव अस्ति.
तत्र उत्तरम् अत्र अत्र अस्ति.
परियोगः नाम भवति. गञ् इत्यस्य ञकारः इति भवति. घकारः अपि इति भवति. अकारः एव अवशिष्यते. परिणाम अचोन्यमिति इति सूत्रेण अत्र उपधा दीर्घ नाम योग आ नाम परियोग नाम इति स्थिते. उपसर्गदेवस्य कारणेन निमित्तेन परिणामः भवति नत्वं भवति.
अचोन्यति सूत्रेण उपधायाः दीर्घं न भवति. अचोन्यति सूत्रेण अजन्तस्य एव वृद्धिः भवति. उपधायाः इति सूत्रेण एव अत उपधायाः इति अत उपधाया सूत्रेण वृद्धिः भवति. तत्र दीर्घः न वदामः. दीर्घ वृद्धिः इति वदामः. परि ना परिणाम इति भवति. अस्तु अरविन्दमहोदय अग्रे गच्छामः वा समापनं
असमासे इति अग्रिमवर्गे चालयतु भगिनि.
अस्तु
अत्र समाससम्बन्धिविषयाणि पठितानि. तत् असमासविषये अग्रिमवर्गे चालयतु.
क्रियापदानि विषये अस्तु.
आम् तत्र सम्बन्ध अन्यसम्बन्धसूत्राणि अपि अस्ति. लक्ष्मी भगिनी तत् सम्यक् स्पष्टीकरोति.
समापयामः.
Okay.
Yeah, we can stop maybe. We can stop and do text class also.
Astu, sir. Samapayama.
You decide.
Samapayama, Mahodaya. Astu. Dhanyavadaha.
Dhanyavadaha, Bhagini. Dhanyavadaha.
Dhanyavadaha, Bhagini.
Dhanyavadaha.
Dhanyavadaha.